एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। अर्थमन्त्री वर्षमान पुन भाषते आगामिनः आर्थिक वर्षस्य आयव्ययकम् उत्पादनमुखी वर्तते। प्रतिनिधिसभाया ह्यस्तनोपवेशे आगामिनः आर्थिक वर्षस्य आयव्ययकम् आधृत्य वित्त विमर्शने सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् मन्त्री पुन आयव्ययकेन उत्पादनस्य वृत्त्युपार्जनस्य च अवसराः स्रक्ष्यन्ते इत्यभासत। अर्थमन्त्री पुन पञ्चोद्देश्यानि पञ्च प्राथमिकताः पञ्च रणनीतिः एतेषां कृते पञ्चरूपान्तरणकारिणीः योजनाश्च समाविश्य आयव्ययकं प्रस्तावितम् अस्तीत्यतः आयव्ययकं वितरणमुखिनः अपेक्षया उत्पादनमुखी वर्तते इति अतर्कयत्। अर्थमन्त्री पुन आयव्ययके विगतकालिकार्थिक सुधारस्य उपलब्धिं संस्थागतीकृत्य परिवर्तितायां वैश्विकार्थव्यवस्थायां देशस्य वस्तुगत आवश्यकतायाः दृष्टिकोणः आयव्ययके वर्तते इति चर्चयन् आयव्ययकस्य माध्यमेन समन्वयं विधाय लक्षितराजस्वस्य सङ्कलनाय सफलता प्राप्स्यते इति विश्वासम् अभिव्यनक्। अर्थमन्त्री पुन नवीनकरस्य रूपेण हरितकरस्य आरम्भो विहितोऽस्तीति चर्चयन् देशेन सौर्योर्जस नवीकरणीयोर्जस प्रति ध्यानं दत्तमस्तीति च अज्ञापयत्। असौ आयव्ययकस्य क्रियान्वयनाय आवश्यक वित्तीय स्रोतसां परिचालनं विधास्यते इत्यवोचत्। प्रतिनिधिसभाया ह्यस्तनोपवेशे आगामिनः आर्थिक वर्षस्य आयव्ययकम् आधृत्य वित्त विमर्शने कतिपय सांसदाः पूर्वतः अपेक्षया अस्य वर्षस्य आयव्ययकेन जनतायाम् आशाम् उद्भाव्य नवीनता आनीता स्थिति अभासन्त। कतिपय सांसदाः आयव्ययकम् अधिकमहत्त्वाकाङ्क्षी वर्तते इति चर्चयन्त क्रियान्वयनाय काठिन्यम् अस्ति इति अगदन्। उपवेशे अर्थसम्बद्धानि त्रीणि विधेयकानि प्रस्तुतानि सन्ति। अर्थमन्त्री वर्षमान पुन एतद्विक्रमवर्षीयाणि विनियोजनविधेयकं राष्ट्रऋणोत्थापनविधेयकं सीमप्रवेशशुल्कविधेयकं च प्रास्तौत्। उपवेशे अन्तर्राष्ट्रिय सम्बद्ध पर्यटन समितेः सभापतिः राजकिशोर यादवः अभिलेख संरक्षण प्रथम संशोधन विधेयकेन सह सम्बद्धम् एतद् विक्रमवर्षीयं समितेः प्रतिवेदनं प्रास्तौत्। प्रतिनिधिसभायाः अपरोपवेशः अद्य पूर्वाह्नस्य एकादशवादने वसति। प्रधानमन्त्री पुष्पकमलदाहालप्रचण्डः पोखरा चिकित्सा महाविद्यालयस्य सञ्चालनानन्तरं प्रतिष्ठानं चिकित्सा शिक्षायै राष्ट्रस्यैव सबलायाः विश्वस्तायाश्च संस्थायाः रूपेण विकसयिष्यते इति विश्वासं व्यनक्ति। पोखरा स्वास्थ्य विज्ञान प्रतिष्ठानस्य सप्तमीं सभां पूर्वेद्युः सम्बोधयन् प्रधानमन्त्री प्रचण्डः आगामिनः आर्थिक वर्षात् MBBS स्तरे अध्ययनाध्यापनयोः प्रतिष्ठानस्य लक्ष्यं पूरितमस्तीत्यतः व्यवस्थित कार्यतालिकया प्रतिष्ठानस्य कार्याणि अग्रे वर्धयितुं निरदिशत्। ह्यैव नेकपा माओवादी केन्द्रस्य गण्डकी प्रदेशस्तरीय कार्यकर्तृ प्रशिक्षण कार्यक्रमे प्रधानमन्त्री दलाध्यक्षश्च प्रचण्डः प्रदेशानां विकासाय आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमाः आयव्ययकञ्च महत्त्वपूर्णानि सन्ति इति असूचयत्। प्रधानमन्त्री प्रचण्डः आगामिनः आर्थिक वर्षस्य आयव्ययकेन कृषेः रूपान्तरणम् ऊर्जसः विकासः सूचना प्रविधेः विकासः पर्यटनस्य प्रवर्धनम् उद्यमशीलता औद्योगिक विकासश्च विशेष प्राथमिकतायां स्थापिताः सन्तीति प्रावोचत्। प्रधानमन्त्रिणा पुष्पकमलदाहालप्रचण्डेन भारतीय प्रधानमन्त्रिणे नरेन्द्र मोदी इत्यस्मै वर्धापन सन्देशः अभिव्यक्तो वर्तते। प्रधानमन्त्रिणा प्रचण्डेन निर्वाचने सफलताम् आलक्ष्य ट्विटर सामाजिक सञ्जालस्य माध्यमेन नरेन्द्र मोदिने वर्धापन सन्देशः प्रेषितो वर्तते। सहैव प्रधानमन्त्रिणा प्रचण्डेन सन्देशे भारतीय जनतायाः उत्साहपूर्वक सहभागितायां विश्वस्य विपुलः लोकतान्त्रिकाभ्यासः सम्पादितः इत्यत्र आत्मनः प्रसन्नतास्तीति उल्लिखितं वर्तते। निर्वाचने भारतीय जनता दलेन 44.2%, भारतीय कङ्ग्रेस दलेन 99%, समाजवादी दलेन 37, तृणमूल कङ्ग्रेस दलेन 29, डिएमसी त्याख्यन दलेन 22 च स्थानेषु विजयः अधिगतोस्ति। निर्वाचने भारतीय जनता दलेन एकाकिना बहुमतस्य प्राप्तौ सत्यमपि भाजपा दलस्य नेतृत्वस्य एनडीए गठबन्धनेन सौविध्यजनकं बहुमतं प्राप्तमस्ति। अत्रान्तरे भारतस्य प्रधानमन्त्रिणा नरेन्द्र मोदिना नूतन सर्वकारस्य घटनाय राष्ट्रपतेः द्रौपदी मुर्मू इत्यस्याः समक्षं त्यागपत्रं प्रदत्तं वर्तते। प्रधानमन्त्रिणा मोदी इत्यनेन नूतन सर्वकारस्य सङ्घटनाय राष्ट्रपतये मुर्मू इत्यस्यै मन्त्रिपरिषदः सदस्यैः सहितस्य सर्वकारप्रमुखस्य रूपेण स्वस्य त्यागपत्रम् अर्पितमस्ति। राष्ट्रपतेः रामचन्द्र पौडेलः जलवायोः परिवर्तनेन सृष्टं प्रभावं न्यूनीकृत्य भाविसन्तते भविष्यं सुरक्षितं विधातुं विश्वसमुदायम् आह्वयति। विश्ववातावरण दिवसस्य अवसरे पूर्वेद्युः राष्ट्रपति भवने आयोजिते कार्यक्रमे राष्ट्रपतिः पौडेलः विश्वव्यापिन्याः उष्णतायाः कारणेन तीव्ररूपेण हिमशृङ्खलासु हिमह्रदेषु च सम्भूतेन परिवर्तनेन जलविप्लवस्य भूस्खलनस्य च सङ्कटस्य कारणेन जीवनयापने समावया सृष्टोस्थिति अगदत्। विश्ववातावरण दिवसस्य अवसरे राष्ट्रस्य कृते घण्टाद्वयमिति अभियानेन भक्तपुरस्य कौशलटारस्थाने आयोजिते राजमार्गस्य स्वच्छताभियान कार्यक्रमे नेकपा एमाले दलस्य अध्यक्ष पूर्व प्रधानमन्त्री च केपी शर्मा ओली वातावरणस्य संरक्षणाय विशेष योजना नीतिश्च आवश्यक्यौस्त इति विचारं व्यक्तवान्। वातावरण विभागेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे वन वातावरण मन्त्री नवल किशोर शाह सुडी जलवायोः परिवर्तनेन सृष्टाः समस्याः समाधाय भाविसन्तत्यै स्वच्छ वातावरणं हस्तान्तरयितुम् एकीभवनाय सर्वान् आह्वयत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा भासते जलवायोः परिवर्तनं विश्वसमुदायस्य कृते प्रमुख समावयस्य विषयः जायमानो वर्तते। विश्ववातावरण दिवसस्य अवसरे रेडियो नेपालेन ह्य ललितपुरस्य भैँसे पाटी स्थानीय प्रशासन केन्द्रस्य परिसरे आयोजिते वृक्षरोपण कार्यक्रमे सञ्चार मन्त्री शर्मा नेपाल प्रवृत्ति विकासशील राष्ट्राणि जलवायोः परिवर्तनस्य कृते निर्णायक कारकाणि न सन्त्यपि एभिः राष्ट्रैः एतस्य प्रभावः सह्यमानो वर्तते इति उदयरयत। उपप्रधान गृहमन्त्री रवि लामिछाने अस्य वर्षस्य वर्षायामस्य आरम्भात् पूर्वमेव सर्वकारेण विपदा न्यूनीकरणाय पूर्वकार्यं विधीयमानमस्ति इति सूचयति। प्रतिनिधिसभाया ह्यस्तनोपवेशे संसदि उत्थापितान् प्रश्नान् उत्तरयन् गृहमन्त्री लामिछाने वर्षायाम सम्बद्ध पूर्वकार्य प्रतिकार्य राष्ट्रिय कार्ययोजनां पारितीकृत्य सम्बद्ध निकायेभ्य क्रियान्वयनाय निर्देशनं दातुं पूर्वकार्यं विधीयमानम् अस्ति इति अज्ञापयत् इति समाचारः।